ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ॐ गुरुभ्यो नमः।
धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः तत्र पूर्वमासीत्, तत्र विशेषणविशेषभावः इति, किन्तु इदानीं तत्र नूतनविषयः भवति। तत्र नूतनविषयः कः इत्युक्ते, तत्र सर्वनामपदं, नूतनसर्वनामपदं भवति। तत्र एतावत् वयं सर्वनामपदं तत्र एषः, सः, एषा, सा, एतत्, तत् इति, तत् तादृशानि पदानि वयं ज्ञातवन्तः एव। इदानीं तत्र नूतनपदं भवति, तत्र इदं शब्दस्य परिचयः भवति। तत्र इदं शब्दस्य पुल्लिङ्गरूपाणि, नपुंसकलिङ्गरूपाणि, अपि अग्रिमे पाठे तत्र स्त्रीलिङ्गरूपाणि अपि वयं पश्यामः। इदानीं तत्र अस्मिन् पाठे, इदानीम् अष्टमपाठः, पुटसङ्ख्या अस्ति 49, तत्र अष्टमपाठः, तत्र गहनकर्मणो गतिः इति, कर्मणः गतिः इति तत्र अस्तु। तत्र सुजाता भगिनी आरम्भं करोति वा भगिनि?
आं महोदय, नमस्कारः।
नमस्कारः भगिनि, सुजाता भगिनी नमस्कारः भगिनि।
एतां कथायाम् उच्चैः पठता अवगच्छता च महाभारतयुद्धं परिसमाप्तं, भीमः शरशय्यायाम् आसीत्। सर्वं सर्वः सर्वः युद्धपरिसरः गजाश्व
नरजीवानां गजाश्व नरजीवानां
मृतशरीरैः भूयिष्ठः आसीत्। तस्मिन् युद्धे मृतानां शरीराणि दृष्ट्वा चिन्ताकुलः आसीत् युधिष्ठिरः। सः अर्जुनैः सह भीमस्य भीष्मस्य सन्निधिं गतवान्। तं नमस्कृत्य उक्तवान्, पितामह, अस्य सर्वस्य विनाशस्य कारणम् अहमेव नानु भवतः अस्याः दुर्दशायाः कारणमपि अहमेव खलु। न जानामि अहं कीदृशीं दुर्गतिं प्राप्स्यामि इति।
हा, समीचीनं भगिनि, धन्यवादः। समीचीनं भगिनि, अस्तु। अग्रे ललिता भगिनी, अग्रे।
पठामि महोदय। तदा तं स्वान्त्वयन् भीष्मः अवदत्, वत्स, अस्य सर्वस्य कारणं त्वं नैव, एते पाण्डवाः स्वस्य पुराकृतस्य कर्मणः फलम् अनुभवन्ति इति। किन्तु युधिष्ठिरः समाहितः न अभवत्। तं पुनरपि बोधयन् भीष्मः तस्य निदर्शनरूपेण मां कथां श्रावितवान्।
पठामि। तत्र तेन सह बालः अचेतनः जातः इति तत्र अग्रिमवाक्यद्वयं पठतु भगिनि।
पुरा गौतमी नाम काचित् तपस्विनी महिला आसीत्। तस्याः अतिप्रियः एकः एव पुत्रः। कदाचित् कश्चन सर्पः तं पुत्रम् अदर्शत्। तेन सह बालः अचेतनः जातः।
समीचीनं भगिनि, धन्यवादः। अस्तु अग्रे शोभा भगिनि, श्रूयते भगिनि, श्रूयते सम्यक्तया श्रूयते। शोभा भगिनि अग्रे।
आम् महोदय।
गीताञ्जलि भगिनी नमस्कारः। पुटसङ्ख्या अस्ति 49।
नमस्ते महोदय, क्षम्यतां महोदय।
अस्तु शोभा भगिनि।
अर्जुनकः नाम व्याधः। एतद् दृष्ट्वा झटिति स्नायुपाशेन तं सर्पं बद्ध्वा गौतम्याः समीपम् आनीतवान्। उक्तवान् च, मातः, अयं दुष्टसर्पः तव पुत्रम् अमारयत्। किम् अहम् एतम् अग्नौ क्षिपानि उत खण्डशः करवाणि? अथवा वद अन्येन केन प्रकारेण एनं दण्डयानि इति। तदा गौतमी अवदत्, हे सौम्य, त्यज इमं सर्पं, यतः अस्मिन् सर्पे मारितेपि मृतः मम पुत्रः जीवितः न भविष्यति इति।
अस्तु, तत्र अर्जुनकः तत्र अग्रिमं तत्र इति कृतम् इति तावत् पर्यन्तं पठतु भगिनि।
किन्तु व्याधः तत् अनङ्गीकुर्वन् पुनः सर्पं मारयितुं तस्याः अनुमतिम् अयाचत। गौतमी तु तस्मै अनुमतिं न अददात्। गौतमी व्याधयोः सम्भाषणं श्रुत्वा सः सर्पः मनुष्यभाषया अवदत्, हे अर्जुनक, अहं बालम् अदशं यत् तत्र मम न कोऽपि दोषः, मृत्योः बलात् एव मया इदं कार्यं कृतम् इति।
समीचीनं भगिनि, धन्यवादः।
धन्यवादः
महोदय, धन्यवादः भगिनि। अस्तु अग्रे वेदा भगिनि।
कुतम आरभ्य महोदय?
तदा व्याधः इति अन्तिमवाक्यं।
तदा व्याधः अवदत् तदेव। तदा व्याधः अवदत्, तथापि अस्य बालस्य दशनं तु त्वया एव कृतम्, अतः त्वं वध्यः एव इति। सर्पः अवदत्, अहं मृत्योः प्रेरणया एव अस्य बालस्य हनने कर्ता अभवम्, वास्तविकं कारणं तु मृत्युः एव इति। तदा मृत्युः एव तत्र उपस्थितः अभवत्। सः अवदत्, हे सर्प, नात्र अहं कारणं, न वा त्वं, कालः अत्र कारणं, यतः तेन प्रेरितः अहं त्वां प्रेरितवान्। यथा वायुः आकाशे स्थितान् मेघान् आकर्षति विकर्षति च, तद्वदेव कालः। तद्वदेव वा? तद्वदेव कालः अपि अस्मान् सर्वान् आकर्षति विकर्षति च। तेनैव कालेन जगत् इदं सृज्यते संह्रियते वा? एवं सति यदि अत्र दोषः स्यात् तर्हि सः कालस्यैव न तु मम इति।
हा, समीचीनं भगिनि, धन्यवादः। अस्तु अग्रे प्रिया भगिनि।
तत् श्रुत्वा कालः एव तत्र उपस्थितः अभवत्। सः अवदत्, हे व्याध, तस्य बालस्य मरणे न अयं पन्नगः, न एषः मृत्युः, न वा अहं कारणीभूताः। कारणं तु अनेन कृतं कर्म एव। यदनेन कृतं कर्म तेनायं निधनं गतः। विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम्। छाया तपौ इव कर्मकर्ता च नित्यसम्बन्धौ भवतः इति।
नित्यसम्बद्धौ
भवतः इति।
अस्तु अग्रे अग्रेपि तत्र किञ्चित् पठतु तत्र अग्रिम।
अस्तु महोदय। सर्वम् एतत् श्रुत्वा गौतमी अवदत्, मम पुत्रस्य मरणकारणम् एषु न कोऽपि अस्ति। मम पुत्रः स्वीयकर्मणां फलेन मृत्युं प्राप्तवान् अस्ति। ममापि तादृशकर्म एव स्यात् येन एतस्य मृत्युः समभवत्। अतः कालः मृत्युः च स्वस्थानं गच्छताम् त्वमपि सर्पम् एतत् परित्यज्य इति.
समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे तत्र गीताञ्जलि भगिनी अग्रे.
एतां कथां श्रावयित्वा भीष्मः अकथयत् राजन् सर्वे अपि स्वकर्मणा फलं प्राप्नुवन्ति इति ज्ञानेन गौतम्याः शोकः परिसमाप्तः. अत्रापि तथैव, त्वया दुर्योधनेन वा न किमपि अपराधम्, सर्वे अपि इमे स्वकर्मणः फलम् अनुभवन्ति, अहमपि अनुभवामि, सर्वे कर्मवशाः वयम्, अतः शोकं मा कुरु इति. भीष्मस्य वचनैः युधिष्ठिरः समाहितः अभवत्. अग्रिमं पठामि वा महोदय? अस्ति वा महोदय? न श्रूयते,
प्रायः क्लेशः
नास्ति इति भाति.
प्रायः नास्ति,
सम्पर्कः भग्नः जातः इति.
नमस्ते महोदय. महोदय नास्ति वा अद्य?
सम्पर्कः भग्नः जातः भगिनि.
ओ एवं वा, अस्तु अस्तु. कुत्र स्मः अधुना तु भगिनि?
49 पेज्.
अस्तु, धन्यवादः भगिनि.
एकवारं तु कथां पठितवन्तः वयम्.
अस्तु,
तदा सम्पर्कः भग्नः जातः इति मन्ये भगिनि.
ओ ओ, एकवारं सर्वं पठितवन्तः वा?
वयं सर्वे मिलित्वा.
नूतना कथा न अद्य?
आं किं भगिनि?
नूतना कथा न अद्य? सर्वनाम शब्दाः.
या या, नूतन
नूतना कथा. अस्तु अस्तु, धन्यवादः. नमस्ते महोदय, महान् अधुना आगतम्.
नमस्कारः, क्षम्यतां, तत्र मम सङ्गणकस्य कापि समस्या आसीत्, किन्तु इदानीं सम्यक् अस्ति, क्षम्यताम्.
नमस्ते नमस्ते महोदय.
भविष्यति भगिनि. नमस्कारः भगिनि. नमस्कारः. अस्तु, तत्र गीताञ्जलि भगिनि, भवती सम्पूर्णतया पठितवती खलु भगिनि तत्र?
आं महोदय.
अस्तु अस्तु अस्तु, धन्यवादः भगिनि. अस्तु, अतः इदानीम् आरम्भं कुर्मः. तत्र उषा भगिनी तत्र आरम्भतः पङ्क्तिशः किञ्चित् पठित्वा वदति वा भगिनि? भवती जानाति वा तत्र कुत्र स्मः इति?
आम् आम्,
अस्तु 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 अस्तु, समीचीनम्. अस्तु 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 भगिनि. अस्तु,
महाभारतयुद्धं परिसमाप्तम्, पूर्णतया समाप्तं जातः महाभारतयुद्धम्.
अपि तत्र इदानीमेव तत्र प्रायशः केचन दिनाः अभवत् इति एव, तत्र बहुकालात् प्राक् जातमिति न, किन्तु युद्धम् आसीत्, तदनन्तरं केचन दिनाः कानिचन दिनानि यापितानि, तदनन्तरम् इदानीम् एषः सन्दर्भः अभवत्.
भीष्मः
क्षम्यता महोदय, तत्र कथायाः शीर्षिका गहना कर्मणो गतिः इति अस्ति. गहना इत्युक्ते दीर्घः वा?
न न न, पश्यामः तत्र गतिः गहना कर्मणः गतिः इति पश्यामः भगिनि. कथयाः अनन्तरे प्रायशः सम्यक्तया वक्तुं शक्नुमः इति मन्ये.
भीष्मः शरशय्यायाम् आसीत्. भीष्मपितामहः शरशय्या इत्युक्ते बाणशयनम्.
हा तत्र शरशय्या, तत्र शरेण अथवा तत्र
बाणेन.
हा बाणेन इति तु एकम् अस्ति, इदानीं बहुवचनरूपं
बाणैः.
हा बाणैः कृतं शय्या, समीचीनं. हा बाणैः कृतं शय्या या अस्ति, तस्यां शय्यायां भीष्मः आसीत्.
सर्वः युद्धपरिसरः गज इत्युक्ते गज अश्व नर
जीवानां
मृतशरीरैः भूयिष्ठः आसीत्.
हा
युद्धपरिसरे इत्युक्ते सम्पूर्णं युद्धभूमि.
किमर्थं युद्धभूमि इति वदन्ति अत्र?
मृत्युशरीरे भूयिष्ठः.
न न न, किमर्थं युद्धपरिसरः इति वदन्ति?
परिसर इत्युक्ते पूर्णं न महोदय.
न न न, परिसरः इत्युक्ते वातावरणं, तत्र युद्धभूमेः समीपं ते सन्ति इति. तत्र किमर्थं तत्र ते सन्ति, तत्र किमर्थम् इदानीं तत्र युद्धभूमि, किमर्थं तत्र युद्धभूमेः विचारः अत्र अस्ति?
महाभारतं युद्धं,
महाभारतं, महाभारते तु सत्यं, किन्तु इदानीं तत्र पूर्वस्मिन् वाक्ये विषयः कः?
शरशय्यायाम् आसीत्
भीमः. भीष्मः कुत्र अस्ति? भीष्मः कुत्र आसीत्?
शरशय्यायाम् आसीत्.
किन्तु किन्तु शरशय्या कुत्र आसीत्?
युद्धपरिसर.
हा अतः अतः युद्धपरिसरस्य विषयः इदानीं.
सर्वः पुल्लिङ्गः अस्ति, युद्धपरिसरः, गज अश्व नर जीवानां.
विभक्ति का तत्र?
षष्टि बहुवचनम्.
हा समीचीनं.
मृतशरीरैः भूयिष्ठः,
पूर्णः इति. तत्र सर्वत्र यत्र कुत्रापि वयं पश्यामः तत्र 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 मृतशरीरम् एव तत्र दृश्यते इति. भूयं, तत्र भूयिष्ठ, तत्र कनिष्ठः, तत्र प्रत्ययः न जानामि तत्र, किन्तु भूयिष्ठ, तत्र पूर्णम् इति. हा भूयं भूयम् इति, भूयो भूयो तु तत्र तु पुनः पुनः इति, किन्तु तत्र भूयिष्ठ इत्युक्ते पूर्णः इति अर्थे इति मन्ये.
ज्येष्ठः कनिष्ठः एव.
हा ज्येष्ठः कनिष्ठः इति सत्यं भगिनि. हा
महोदय, तत्र अबण्डेन्स् इति अपि अस्ति महोदय.
हा हा अबण्डेन्स् अपि सत्यं भगिनि, सत्यं. हा पूर्णः इति तदेव अस्ति, किन्तु अबण्डेन्स् उत्तमम् अस्ति भगिनि. हा नाम तत्र सर्वत्र अस्ति अत्र. हा
सर्वत्र शरीराणि
हा सन्ति इति समीचीनं भगिनि. हा
यत्र कुत्र पश्यामि सर्वत्र मृतशरीरे
शरीराणि सन्ति इति.
शरीराणि सन्ति. तस्मिन् युद्धे मृतानां शरीराणि दृष्ट्वा चिन्ताकुलः आसीत् युधिष्ठिरः. कः चिन्ताकुलः आसीत्? युधिष्ठिरः चिन्ताकुलः आसीत्. कं दृष्ट्वा न महोदय?
समीचीनं. कम् अथवा किं दृष्ट्वा? अस्तु,
किं दृष्ट्वा? मृतानां शरीराणि दृष्ट्वा.
हा समीचीनं.
कुत्र कुत्र दृष्ट्वा इत्युक्ते युद्धभूमौ.
हा अथवा तस्मिन् युद्धौ, तत्र कुत्र इति, कुत्र दृष्ट्वा इति तादृशार्थे नास्ति भगिनि. तत्र प्रायशः तत्र किञ्चित् वक्तव्यमस्ति, नाम तत्र एतावत् समीचीनमेव, तत्र युधिष्ठिरः शरीराणि दृष्ट्वा चिन्ताकुलः आसीत् खलु?
आं महोदय.
हा इदानीं तत्र मृतानां शरीराणि इति अस्ति खलु? हा नाम तत्र मृतशरीराणि. तत्र मृतानां शरीराणि तत्र मृतशरीराणि दृष्ट्वा चिन्ताकुलः आसीत् युधिष्ठिरः. किन्तु तत्र मृतानाम् इति किमर्थं स्वीकृतम् इत्युक्ते तत्र कुत्र मृताणाम् इति, तत्र मृता तत्र शरीराणि सन्ति, मृतानि शरीराणि सन्ति, किन्तु कुत्र कुत्र मृतं प्राप्तं, हा अस्मिन् युद्धे मृतं हा इति. अतः तत्र अस्मिन् युद्धे इति पदद्वयम् अन्वयः कुत्र अस्ति चेत् तत्र मृतानाम् इति
इत्युक्ते कुत्र दृष्ट्वा इति सम्यक्
कुत्र मृतम् तत्र युद्धं तु पूर्वमेव जातम्. इदानीं युधिष्ठिरः चिन्ताकुलः अस्ति खलु, हा इदानीं सः अस्ति, किन्तु तत्र सैनिकाः ये मृताः तेषां मरणं तु पूर्वं जातं खलु, यतोहि युद्धं पूर्वमेव आसीत्. हा तत्र यद्यपि यदि सः इदानीं तत्र युधिष्ठिरः तं तेषां मरणं दृष्टवान् वा इति प्रश्नः नास्ति, किन्तु केवलं मृतानां शरीराणि तत्र कुत्र तेषां मरणं जातम् इत्युक्ते युद्धे जातम्, अतः तस्मिन् युद्धे मृतानाम्
इत्युक्ते प्रश्नवाचक कथं
तत्र इदानीं तत्र अतः तत्र अन्वयः युधिष्ठिरः इति पदस्य अन्वयः नास्ति, मृतानाम् इति पदस्य एव तत्र अन्वयः अस्ति. अस्मिन् युद्धे मृतानाम् शरीराणि शरीराणि इति पदस्य अपि युधिष्ठिरः तयोः मध्ये सम्बन्धः अस्ति, यतोहि युधिष्ठिरः दृष्ट्वा शरीराणि दृष्ट्वा, किन्तु तत्र कुत्र तेषां मरणं कुत्र जातम् इत्युक्ते तत्र युद्धे तस्मिन् युद्धे महाभारते युद्धे तेषां मरणं जातं, तानि शरीराणि इदानीं युधिष्ठिरः दृष्ट्वा चिन्ताकुलः आसीत्. समीचीनं वा भगिनि?
आं महोदय.
अग्रे
सः अनुजैः सह भीष्मस्य सन्निधिं गतवान्. सः इत्युक्ते युधिष्ठिरः अनुजैः सह अनुजैः तृतीया बहुवचनम् इत्युक्ते अर्जुनः नकुलः सहदेवः न महोदय
भीमः अपि
भीमः सः भीष्मस्य सन्निधिं गतवान्.
सन्निधिं नाम
तस्य समीपम् इति मन्ये.
समीपं तस्य समीपं गतवान् युधिष्ठिरः.
युधिष्ठिरः गतवान् तं नमस्कृत्य, तम् इत्युक्ते भीष्म
तं भीष्मं
नमस्कृत्य उक्तवान्. किम् उक्तवान्? पितामह, ये पितामह सम्बोधन, अस्य सर्वस्य विनाशस्य कारणम् अहम् एव ननु.
अस्य इति नूतनपदम् अस्ति. अस्य इत्युक्ते एतस्य, अस्य नाम एतस्य.
परन्तु अस्य अपि च एतस्य
अत्र एतस्य सर्वं, तस्य अपि भवितुमर्हति, किन्तु अत्र एतस्य सर्वं, यतोहि ते तत्र एव सन्ति खलु, इदानीं युद्धभूमौ एव सन्ति खलु, अतः तत्र सर्वं समीपम् अस्ति इति कृत्वा तत्र एतस्य इति चिन्तयितुं शक्नुमः. किन्तु अत्र अस्य तत्र इदं शब्दस्य अग्रिमे पुटे अस्ति, किन्तु अत्र अस्य नाम षष्टी अस्ति, एतस्य इति चिन्तयतु इदानीम्. अग्रे रूपाणि पश्यामः.
सर्वस्य विनाशस्य कारणम् अहमेव ननु,
अहमेव एतस्य सर्वस्य विनाशस्य कारणं खलु, खलु इति पृच्छति.
उक्तवान् भीष्मं नमस्कृत्य, भवतः अस्याः दुर्दशायाः कारणमपि अहमेव खलु. भवतः अस्याः षष्टि एकवचने, भवतः अपि च अस्याः भवतः इत्युक्ते
भीष्मस्य अस्याः इति स्त्रीलिङ्गपदम् अस्ति एतस्याः इति चिन्तयतु तत्र अस्याः इति स्त्रीलिङ्गे अस्ति दुर्दशायाः इति अतः अतः तत्र एतस्याः दुर्दशायाः
दुर्दशायाः कारणम् अपि अहम् एव खलु
इति सः पृच्छति
न जानामि अहं कीदृशीं दुर्गतिं प्राप्स्यामि इति प्राप्स्यामि इति
न न प्राप्स्यामि इति
प्राप्स्यामि महोदय
सत्यं भगिनि
न जानामि न जानामि अहम् इत्युक्ते युधिष्ठिरः अहं कीदृशी तत्र स्त्रीलिङ्गे अस्ति महोदय दुर्गति अपि स्त्रीलिङ्गे विशेषणं विशेषम् अस्ति कीदृशीं दुर्गतिं प्राप्स्यामि दुर्गतिम्
इति सः वदति तत्र प्राप्स्यामि इति पदस्य कर्मपदं तत्र दुर्गतिं
प्राप्स्यामि
कीदृशीं दुर्गतिं प्राप्स्यामि इति न जानामि इति सः वदति समीचीनं भगिनि अस्तु अस्तु तर्हि अग्रे तत्र नरेश महोदय अग्रे पठित्वा वदति महोदय शुभदा भगिनि नमस्कारः
नमस्कारः महोदय
नमस्कारः भगिनि पेज् नम्बर् अस्ति 49
आमां महोदय
अस्तु
धन्यवादः
तदा तं सान्त्वयन् भीष्मः अवदत् अत्र तदा तं सान्त्वयन् भीष्मः अवदत् शत्रन्तरूपम् अस्ति सान्त्वना ददाति
तत्र समाधानं कर्तुम् इति अर्थे
अस्य सर्वस्य कारणं त्वं नैव
नैव नाम
न एव
नाम त्वं न इति केवलं त्वं न किन्तु त्वं न एव तत्र कदापि मा चिन्तयतु भव त्वम् एव कारणम् इति
त्वं कारणं नास्ति
महोदय प्रश्न महोदय एव पदस्य अन्ते अस्ति चेत् संशय एव नास्ति इति न महोदय
संशयात् अथवा संशयः नास्ति अपि तत्र एम्फसिस् इति अपि वक्तुं शक्नुमः भगिनि तद् नास्ति तद् नास्ति खलु इति तद् नास्ति एव तत्र वयमपि साधु भगिनि अस्तु नरेश
इमे ते बान्धवाः स्वस्य स्वस्य पुराकृतस्य कर्मणः फलम् अनुभवन्ति इति
तत्र इमे नाम तत्र इदानीं तत्र एकवारं किञ्चित् पश्यामः तत्र पुटसङ्ख्या 59 तत्र 51 मध्ये तत्र इदं शब्दस्य पुल्लिङ्गरूपाणि प्रथमविभक्तौ किं कानि
अयम् इमौ इमे
तत्र एषः एषः एतौ एते इति स्थाने इदानीं तत्र पुल्लिङ्गरूपम् इदं शब्दस्य अयम् इमौ इमे तत्र पूर्वं तत्र अत्र किम् अस्ति इमे बान्धवाः तत्र बहुवचने इमे बान्धवाः इति अस्ति एकवचने किं भवति
अयं
बान्धवः
बन्धुः
न एतत् भिन्नम् अस्ति एतत् बन्धुः पदं नास्ति एतत्तु बान्धवाः इति बान्धवः अयं बान्धवः इमौ बान्धवौ इमे बान्धवाः अतः तत्र इमे बान्धवाः स्वस्य
प्राकृतस्य कर्मणः फलम् अनुभवन्ति इति
तत्र बान्धवाः अनुभवन्ति क्रियापदमस्ति किम् अनुभवन्ति
कर्मणः फलम् अनुभवन्ति
कर्मणः फलम् अनुभवन्ति कदा कृतं कर्म तत्र कर्म
स्वस्य पुराकृतस्य
पुराकृतस्य नाम पूर्वं कृतं हा पुरा कृतस्य पूर्वं कृतं पुराकृतं कर्म इदानीं पुराकृतस्य कर्मणः तत्र तयोः मध्ये कोऽपि सम्बन्धः अस्ति वा पुराकृतस्य कर्मणः इति
विशेषणविशेषण
हा नाम कर्म कर्म तत्र कर्म कीदृशम् इति वदति खलु कर्म पुरा पुराकृतम् इति पूर्वमेव कृतं कर्म अतः पुराकृतं कर्म इदानीं तस्य षष्ठी एकवचनं पुराकृतस्य कर्मणः फलम् अनुभवन्ति अपि तत्र बान्धवाः इति बहुवचने अस्ति तत्र स्वस्य स्वस्य तत्र प्रत्येकबान्धवः सः हा स्वस्य कर्मणः फलम् अनुभवति अतः तत् न तु अन्यस्य न तु अन्यस्य न तु इतरस्य पुराकृतं कर्मणः किन्तु स्वस्य पुराकृतस्य कर्मणः फलम् बान्धवाः अनुभवन्ति इदानीं तत्र ते इति पदम् अस्ति ते नाम किम् ते इति तत्र सहतौ ते वा अथवा भिन्नं वा
भिन्नम् अस्ति
हा तत्र सहतौ ते इति तत्र तु तादृशं नास्ति अत्र ते इत्युक्ते
त्वं त्वं किं
हा 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 तत्र तव इति अर्थे अत्र
विभक्ति
हा एकवचनं हा इति हा समीचीनं महोदय इमे तव बान्धवाः इमे ते बान्धवाः नाम इमे तव बान्धवाः स्वस्य स्वस्य पुराकृतस्य कर्मणः फलम् अनुभवन्ति इति इति भीष्मः वदति किं किमर्थं वदति युधिष्ठिरं
समाहित
तत्र हा समाधानं कर्तुम् अथवा तस्य समाहिताय सः एतद् वदति हा किन्तु किम् अभवत्
युधिष्ठिरः समाहितः न अभवत्
हा युधिष्ठिरः समाधानं न प्राप्तवान् हा अतः तत्र तत्र किमर्थं तत्र भीष्मः तत्त्वम् उक्तवान् खलु अत्र भीष्मः तत्त्वम् उक्तवान् तत्र जीवनतत्त्वम् उक्तवान् तत्र सर्वे जीवाः तत्र स्वस्य स्वस्य पुराकृतस्य कर्मणः फलम् अनुभवन्ति इति तत्त्वम् उक्तवान् किन्तु तत्त्वेन तत्र सर्वदा तत्र हा तत्र अवगमनं न भवति खलु अस्माकं जीवने अपि तत्र केवलं तत्त्वं तत्र तत्त्वमसि इति यदि तत्र शृण्मः तत्र अधिकम् इच्छामः खलु तत्र तस्मिन् विषये केवलं तत्र तत्त्वेन वयं हा समाधानं न प्राप्नुमः अतः तत्र युधिष्ठिरः समाहितः न अभवत् हा
तुष्टः न अभवत्
हा इदानीं
तं पुनरपि बोधयन् भीष्मः तस्य निर्देशरूपेण इमां कथां श्रावितवान्
हा इदानीं तम् इत्युक्ते कम्
तं युधिष्ठिरं
हा तं युधिष्ठिरं पुनरपि बोधयन् एकवारं बोधितवान् किन्तु तत्र युधिष्ठिरः न अवगतवान् इति कृत्वा तत्र पुनरपि बोधयन् भीष्मः किं कृतवान् हा इदानीं तत्र इमां कथां तत्र पुनः इदं पदस्य स्त्रीलिङ्गरूपम् अग्रिमे पाठे पश्यामः किन्तु इदानीम् अत्र स्थापितमस्ति किन्तु तत्र इयम् इमे इमाः इमाम् इमे इमाः इति अस्ति तत्र हा द्वितीयभक्ति हा श्रावितवान् किं श्रावितवान् तत्र कथां श्रावितवान् इमां कथां श्रावितवान् तत्र तस्मात् प्राक् निर्दर्शनरूपेण इति अस्ति निर्दर्शनरूपेण इत्युक्ते
निर्दशनरूपेण
तस्य निर्दशनरूपेण इति अस्ति
तृतीयविभक्ति एकवचनं
हा निर्दशनरूपेण इति तृतीयविभक्ति तत्र निर्दशनं क्षम्यतां निर्दशनम् इति उक्तवान् निदर्शनम् इति हा निदर्शनं निदर्शनरूपेण इति निदर्शनरूपेण तत्र निदर्शनम् इत्युक्ते अवगमनार्थं किमपि अधिकं वदामः, तत्र दृष्टान्तं वा उदाहरणं वा किमपि तत्र वदामः, निदर्शनं तस्य दर्शनार्थं तत्र अनुकूलं भवतु इति कृत्वा किमपि वदामः तत्र निदर्शनं, निदर्शनरूपेण तत्र निदर्शनं किमस्ति, कथा अस्ति, कथा एव निदर्शनम् अस्ति, निदर्शनरूपेण अत्र कथा स्वीकृता अस्ति, किन्तु तत्र अतः तत्र निदर्शनरूपेण इमां कथां श्रावितवान् इति अस्ति, तस्य इति अस्ति, तस्य इत्युक्ते कस्य
निदर्शनरूपेण, तस्य
निदर्शनरूपेण, किन्तु तस्य तस्य इति अस्ति, कस्य निदर्शनरूपेण,
युधिष्ठिरस्य,
न न युधिष्ठिरस्य निदर्शनं न कर्तुं शक्नोति, इच्छति खलु, कस्य निदर्शनं कर्तुम् इच्छति, कथा कथा इति अग्रे, कथा एव निदर्शनं, कथा एव निदर्शनं, किन्तु कस्य निदर्शनं कथा अस्ति इति प्रश्नः,
पुराकृतस्य,
पुराकृतस्य
तत्र भीष्मस्य बोधनं,
हा भीष्मं, भीष्मः किमपि तत्त्वं बोधितवान् खलु, हा तस्य तत्त्वस्य निदर्शनम् इति, तत्र अथवा यत् वाक्यं सः उक्तवान् तत्र स्वस्य स्वस्य इति तस्य वाक्यस्य निदर्शनरूपेण तत्र कथां श्रावितवान्, अतः तत्र तत्त्वस्य निदर्शनं
स्वस्य उक्तस्य,
हा स्वस्य उक्तस्य तत्त्वस्य निदर्शनरूपेण कथां श्रावितवान् भीष्मः इति, अतः तत्र तस्य नाम तत्र अन्वय कुत्र अस्ति इत्युक्ते तत्र पूर्ववाक्यं, तत्र इमेते बान्धवाः स्वस्य स्वस्य पुराकृतस्य कर्मणः फलम् अनुभवन्ति इति वाक्यस्य निदर्शनं, अग्रे या कथा अस्ति सा कथा निदर्शनम् अस्ति, अस्तु समीचीनं महोदय, अग्रे अपि तत्र वाक्यद्वयं पठति वा,
पुरा गौतमी नाम काचित् तपस्विनी महिला आसीत्, भीष्मः अवदत् पुरा एक गौतमी नाम तपस्विनी आसीत्,
तत्र तपस्विनी इति अस्ति स्त्रीलिङ्गे तपस्विनी, पुल्लिङ्गे तपस्वी, तत्र तपः तपस्वी इति अस्ति, तत्र तपस्वी इत्युक्ते यस्य अथवा यस्मिन् तपः अस्ति सः तपस्वी, इनि प्रत्ययः इति वदामः, तत्र स्वी तपस्वी इति किमर्थम् इत्युक्ते तत्र तपस् इति सकारान्तपदम्, अतः तत्र तपस्वी इति भवति, अस्तु अपि स्त्रीलिङ्गे तपस्विनी, तत्र नदी शब्दवत् एव, महिला आसीत् तत्र गौतमी महिला आसीत्, सा तपस्विनी अपि आसीत्, अतः तत्र तपस्विनी विशेषणं भवति महिला इति पदस्य, हा अग्रे गौतमी इति पदस्य अपि विशेषणं भवितुम् अर्हति, हा अग्रे तस्याः गौतम्याः
एकः एव पुत्रः,
हा एकः एव पुत्रः,
एकः पुत्रः,
हा अतिप्रियः पुत्रः, एषः पुत्रः,
कदाचित् कश्चन सर्पः तं पुत्रम् अदशत्,
हा अदशत् इत्युक्ते तत्र दशनं कृतवान् सर्पः, नाम मारितवान् इति, सर्पः तं पुत्रं मारितवान्, अस्तु हा अस्तु महोदय धन्यवादः, इदानीं
महोदय प्रश्नः अस्ति, इमे ते बान्धवाः इति पदे ते इति कीदृशपदम्,
अहं चिन्तयामि भगिनि तत्र तव इति अर्थे अस्ति इति,
आम् सत्यं महोदय तव बान्धवाः,
इमे तव बान्धवाः इति, तत्र सः तौ ते इति नास्ति, किन्तु त्वम् इति पदस्य तत्र षष्टि हा
तत् अस्ति चेत् अत्र स्थूलरीत्या अस्ति ततः त्वम् इति अपि सर्वनामपदं वा किमर्थं चेत् ओ अस्तु
युष्मत्शब्दस्य
अस्तु अस्तु अहम् अस्तु अस्तु धन्यवादः
अस्तु समीचीनप्रश्नः किन्तु हा अस्तु अग्रे तत्र इदानीं तत्र अस्तु अग्रे हा वंशीसुर भगिनी भवती एव अग्रे करोति वा
आं महोदय करोमि
हा
अस्तु तस्याः एतत् वाक्यम् अभवत् किल तस्याः अतिप्रियः एकः एव पुत्रः अस्तु कदाचित् कश्चन सर्पः तं पुत्रम् अदर्शत् कदाचित् तं पुत्रम् इत्युक्ते तम् इत्युक्ते पुत्र गौतम्याः इत्युक्ते तां पुत्रम् इति तं पुत्रम् इत्युक्ते
सः पुत्रः तं पुत्रं
द्वितीयविभक्तौ अस्ति महोदय
सः पुत्रः तं पुत्रम्
अदशत् तस्य क्रियाया सह अन्वयः भवति तं पुत्रम् अदशत् अस्ति कदाचित् कश्चन सर्पः तं पुत्रम् अदशत् अस्तु तेन सह बालः अचेतनः जातः अदशत् इति अदशतः
तत्र अदशत् इत्युक्ते साक्षात् यत् क्रिया तत्र सर्पः करोति सर्पः दशति किन्तु तत्र अत्र अर्थः तत्र दश अदशत् तेन तत्र सः इदानीं तत्र मरणं प्राप्तवान् तत्र अचेतनः जातः नाम मरणं प्राप्तवान्
सः तेन सह इत्युक्ते सर्पस्य कारण सर्पः यदा अदशत्
तत्र दशति इति प्रायशः तत्र दशनम् इति सर्पस्य दशनेन इति सर्पस्य दशनेन
लुडन्तपदं भवति सर्पस्य अदशनेन अदशनं
न अदशनं तु अदशत् इति अतः तत्र दशति इति
दशनं भवति वा
दशनं
महोदय एकः प्रश्नः महोदय तपस्विन् अस्ति न महोदय पुंलिङ्गे
पुंलिङ्गे तपस्विन् नकारान्तपदं सत्यं भगिनि गुणिन्वत्
गुणिन्वत् अस्ति
किन्तु स्त्रीलिङ्गे नदीवत् एव भवति
सर्पस्य दशनेन सह बालः अचेतनः जातः यदा सर्पः अदशत् तेन कारणेन बालः अचेतनः तत् मृतः नास्ति परन्तु चेतनः नास्ति महोदय परन्तु सः मृतः अभवत् वा अचेतनः इत्युक्ते मृतः नास्ति न
सत्यं सत्यं तत्र तत्र चेतना इति अथवा चेतना इति चेतना इति चेतना नासीत् इति तस्य चेतना नासीत् इति किन्तु प्रायशः तत्र अग्रे यदि कथां पठामः तत्र सः तस्य मरणम् अभवत् इति एव स्वीकृतमस्ति पश्यामः अस्तु अग्रे पठतु
तत्र जातः इति अकर्मकः अस्ति अतः अचेतनः जातः इति अभवत् तत्र अर्जुनकः नाम व्याधः एतत् दृष्ट्वा झटिति स्नायुपाशेन तं सर्पं बद्ध्वा गौतम्याः समीपम् आनीतवान्
तत्र स्नायुपाशं यत् चित्रे वयं पश्यामः तदेव स्नायुपाशम् अस्ति येन सह तत्र सर्पं बद्ध्वा नीतवान् तदेव स्नायुपाशम् इति
अर्जुनकः नाम व्याधः अस्तु तस्य नाम अस्ति अर्जुनकः एकः व्याधः अस्ति सः एतत् सर्वं दृष्ट्वा शीघ्रेण स्नायुपाच्येन इति तृतीया विभक्तौ अस्ति केन सह केन
माध्यमेन तेन माध्यमेन
माध्यमेन तत्र करणं भवति स्नायुपाशेन तं सर्पम् इत्युक्ते तत्र विषय तत्र सर्वनामशब्दः अस्ति तं सर्पं द्वितीया विभक्तौ अस्ति तम् आनीतवान् तेन सह अन्वयः भवति तं सर्पं बद्ध्वा तत्र त्वान्तशब्दः अस्ति बद्ध्वा गौतम्याः समीपं गौतम्याः इति षष्ठी विभक्ति अस्ति समीपम् इति अव्ययपदमस्ति वा महोदय समीपम् आनीतवान् इत्युक्ते तत्र सर्वं दृष्ट्वा सः व्याधः सर्पं झटिति भद्वा गौतम्याः समीपम् आनीतवान्। सम्यक् वा, किमपि वक्तव्यम्?
आमामां, तत्र गौतम्याः समीपं तत्र सर्पम् आनीतवान्, तत्र सर्पं गौतम्याः समीपं
तेन सह तं सर्पम् आनीतवान्,
अतः तं सर्पम् आनीतवान्। समीचीनं।
उक्तवान् च मातः, अयं दुष्टसर्पः तव पुत्रम् अमारयत्। सः उक्तवान् च, एतत् अपि उक्तवान् इत्युक्ते सः सर्पम् आनीय एतत् अपि उक्तवान् इति।
सत्यं सत्यं, तत्र आनीतवान् तदनन्तरम् उक्तवान्, अतः तत्र अतः एव च इति अस्ति।
कण्टिन्यूटि भवति इति।
सत्यं सत्यं भगिनि,
मातः इति सम्बोधना अस्ति मातृशब्दस्य। अयं दुष्टसर्पः, अयमिति अयमिति स्त्रीलिङ्ग, न
अयमिति पुल्लिङ्गपदं, तत्र इदम् इदं शब्दस्य पुल्लिङ्गरूपम् अयम्। अत्र एषः इति स्वीकर्तुं शक्नुमः, एषः दुष्टसर्पः।
अयम् इमौ इमे इति प्रथम।
सत्यं 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 भगिनि, अग्रिमेपुटे अस्ति।
दुष्टसर्पः तव पुत्रम् अमारयत्, दुष्टसर्पः तव इति षष्ठी विभक्तौ अस्ति। तव पुत्रम् अमारयत्, अमारयत् इति क्रियापदम् अस्ति, क्रियापदस्य सकर्मकधातुः अस्ति, अतः पुत्रम् इति द्वितीया विभक्तौ अस्ति। पुत्रम् अमारयत्। अस्तु, किम् अहम् एतम् अग्नौ क्षिपाणि उत खण्डशः करवाणि? अस्तु, सः व्याधः उक्तं, किम् अहम् एतं, किम् अपि सर्वनामशब्दः अस्ति, अहम् एतम्, एतम् इति द्वितीया विभक्त, एतम्
एतम् इत्युक्ते कम्, एतम् इत्युक्ते सर्पम्, एतं सर्पम्,
एतं सर्पम्
तत्र तत्र एतं तत्र एषः अस्ति चेत् एतम् इति भवति खलु,
सर्पः नो चेत् एतं सर्पम्, एतं सर्पम् अग्नौ इति सप्तमी विभक्ति, अग्नि इति शब्दस्य सप्तमी विभक्तौ अस्ति, विभक्ति अस्ति। क्षिपानि इति लोट् लकार उत्तमपुरुषः एकवचनरूपम् अस्ति।
अहं किं करवाणि, अहं क्षिपानि, तत्र एतम् अग्नौ क्षिपानि, उत उत नाम अथवा
नो चेत्
खण्डशः करवाणि इत्युक्ते तत्र
खण्डं कृत्वा,
अनेकानि खण्ड तत्र खण्डशः तत्र
करवाणि, तदपि लोट् लकार
लोट् लकार एव अस्ति। खण्डशः सर्पं
करवाणि, कृधातु इति कृधातुतः करवाणि इति
करवाणि एव लोट् लकारः करवाणि।
खण्डशः इति कीदृशपदमस्ति महोदय?
तत्र शः तत्र तत्र समूह स्वीकृत्य तत्र सहस्रशः अथवा खण्डशः अथवा पङ्क्तिशः, तत्र समूहम् एकम् समूहं कृत्वा अत्र अत्र खण्डम् एकम् खण्डं तादृशं करवाणि वा इति सः
वदतु। सम्यक् महोदय, क्षिपाणि इति सकर्मकधातुः अस्ति, अतः एतं सर्पं क्षिपाणि तेन सह अन्वयः भवति, परन्तु करवाणि इति अपि सकर्मकधातुः अस्ति, केन सह तत्र अन्वयः भवति महोदय? खण्डशः
तत्र न, पुनः एतं सर्पं खण्डशः करवाणि वा इति।
ओ एवं वा, अस्तु, एतं सर्पं खण्डशः करवाणि, अस्तु, अस्तु अस्तु, सम्यक् महोदय। अथवा वद अन्येन केन प्रकारेण एनं दण्डयानि, अथवा वद इति मध्यमपुरुष लोट् लकार अस्ति, एकवचने अस्ति, अथवा नो चेत् वद इति त्वं वद इति तत्र भवितुम् अर्हति। अन्येन केन प्रकारेण, अन्येन केन तृतीया विभक्ति भवति, अन्येन केन कारणम् इत्युक्ते कारणेन इति भवति, अतः अन्येन केन कारणेन
प्रकारेण तत्र मार्गेण तत्र
मार्गेण
मार्गेण
एनं
एनम् इत्युक्ते तत्र
अयं शब्दः द्वितीया विभक्ति अस्ति, इमं नो चेत्
तत्र रूपद्वयमस्ति। समीचीनं भगिनि, तत्र अग्रिमे पुटे एतत् सर्वे लिखन्तु, तत्र अग्रिमे पुटे तत्र कोष्टकम् अस्ति, तत्र अयम् इमो इमे इति प्रथमविभक्तिरूपं किन्तु द्वितीयविभक्तौ इमम् इति दत्तमस्ति, किन्तु तत्र इममपि एकं भवति, एनम् अपि रूपं भवति. न न न तत्र प्रायश तदपि भवतु, किन्तु तत्र इमं स्थाने एनम् अपि भवितुम् अर्हति तत्र. हा
एनम् एनौ एनान् इति अपि भवितुम् अर्हति द्वितीयविभक्तौ
प्रायशः भगिनि. हा किन्तु अत्र इदानीं तत्र एनम् इति यदस्ति तद् इमम् इति अर्थे अस्ति.
सत्यम् इमं दण्डयामि तत् भवति. इमं दण्डयानि इति तदपि लोट्लकार उत्तमपुरुषरूपमस्ति. दण्डयानि इति सः उक्तवान्
इति पृच्छति इति सः पृच्छति.
सत्यम्. अत्र करवाणि इत्यस्मिन् नकारस्य नत्वं भवति, रेफः अस्ति, अतः तेन कारणेन नत्वं भवति महोदय करवाणि.
सत्यं मध्ये बाधा नास्ति.
स्थलेषु क्षिपानि दण्डयानि इत्यस्मिन् नकारस्य नत्वं न भवति, यतोहि तत्र रेफः निमित्तं नास्ति महोदय तत्र.
समीचीनं भगिनि. समीचीनं. अस्तु अग्रे धन्यवादः भगिनि. धन्यवादः. अस्तु अग्रे तत्र शुभदा भगिनी अग्रे पठति वा. मधु महोदय नमस्कारः, इदानीमेव दृष्टवान्, क्षम्यतां महोदय, नमस्कारः. अस्तु
अस्तु
नमस्कारः. पुटसङ्ख्या अस्ति 49 महोदय. अस्तु शुभदा भगिनी. अस्तु अग्रे
अस्तु. तदा गौतमी अवदत्, हे सौम्य, त्यज इमं सर्पं, यतः अस्मिन् सर्पे मारितेऽपि मृतः मम पुत्रः जीवितः न भविष्यति इति. तदा गौतमी अवदत्, गौतमी इत्युक्ते सा तपस्विनी महिला, सा अवदत्. अवदत् इत्युक्ते वद इत्यस्य लङ्लकारे प्रथमपुरुषे एकवचने अवदत् इति. हे सौम्य, सौम्य इत्युक्ते तस्य किमस्ति
सम्बोधनं तत्र. सौम्य इति केवलं तत्र व्याधः इति तत्र किमर्थम् एतद् स्वीकृतं न जानामि. अथवा प्रायशः सौम्य तत्र सौम्य भवतु इति स्वीकृतं वा इति. सत्यं भगिनि, किन्तु सौम्य इति पदं किमर्थम् इति.
महोदय इति अर्थे वा?
महोदय इति अर्थे
भद्रपुरुषः.
अस्तु.
सौम्य एतदपि भवितुम् अर्हति. व्याधः इत्युक्ते क्रूरः स्वभावः. सौम्य भवतु
इति मम चिन्तनम् आसीत् तत्र. इति मम चिन्तनम् आसीत्. अस्तु अग्रे भगिनि.
सौम्य भवायत्
इति सम्बोधनं कृत्वा तत्र अस्तु तादृशं भवतु इदानीं
विपरीतरूपेण उक्तवती.
सत्यं.
त्यज इमं सर्पं, त्यज इत्युक्ते त्यज धातोः लोट्लकारे मध्यमपुरुषे एकवचने त्यज.
त्यज त्वं त्यज.
त्वं त्यज इति. इमं सर्पम्, इमम् इत्युक्ते इदं शब्दस्य पुल्लिङ्गे द्वितीयाविभक्ति
एकवचनम्.
अत्र एनम् अपि योजनं कुर्मः चेत्
सम्यक् एव भवति,
समीचीनमेव.
सत्यम्.
अतः त्यज इमं सर्पं, यतः अस्मिन् सर्पे.
यतः नाम कारणं. यतः
कारणम् अस्मिन् सर्पे मारितेऽपि अस्मिन् सर्पे मारितेऽपि. अत्र तु सतिसप्तमी अस्ति.
सतिसप्तमी अस्ति. समीचीनं भगिनि. एषः सर्पः मारितः भवति चेदपि
मम पुत्रः जीवितः.
मृतः मम पुत्रः. मम पुत्रः यः मृतः अस्ति सः जीवितः न भविष्यति. अतः तत्र यदि एषः सर्पः मारितः भवति तथापि मृतः मम पुत्रः, मम पुत्रः यः मृतः सः जीवितः न भविष्यति इति सा वदति। हा समीचीनं भगिनि। अग्रे
सतिसप्तमी यत्र अस्ति तत्र यदि तर्हि इत्यस्य उपयोगं,
यदि तर्हि अथवा तत्र यदा तदा इति तथापि तत्र सतिसप्तमी रूपं भवति भगिनि। अतः तत्र एषः सर्पः मारितः इति तत् स्वीकृत्य तस्य सप्तमी विभक्तिरूपं स्थापितमस्ति
अस्मिन् सर्पे मारिते।
तत्र यदा तत्र यदा अध्यापकः तत्र प्रविशति तदा तत्र छात्राणि उत्तिष्ठन्ति तत्रापि तत्र सतिसप्तमी रूपं तादृशं स्थापितुं शक्नुमः। तत्र यदा तदे मध्ये अपि भवति, अत्रापि तत्र तादृश तत्र सः यदा एषः भवति तथापि इति तावदेव। हा तथापि एतद् न भवति इति। क्रियाद्वयम् अस्ति। हा क्रियाद्वयं तत्र नाम हा वाक्यद्वयम् इति। अग्रे
किन्तु व्याधः तत् अनङ्गीकुर्वन् पुनः पुनः सर्पं मारयितुं तस्याः अनुमतिम् अयाचत। व्याधः तु तत्र दुर्लक्षं कृत्वा पुनः पुनः सर्पं मारामि इति तस्याः गौतम्याः अनुमतिं सम्मतिम् अयाचत।
तत्र गौतम्याः अनुमतिम् अयाचत तत्र मारयितुं तुमुन् सर्पं मारयितुम् अपि तत्र एकवारं सः अयाचत अथवा बहुवारम्?
पुनः पुनः
पुनः पुनः अयाचत न पुनः पुनः मारयितुम् इति न किन्तु पुनः पुनः अन अयाचत इति। अतः तत्र पुनः पुनः इति अन्वयः अयाचत इति पदस्य। पुनः पुनः अयाचत अनङ्गीकुर्वन् तत्र
अनङ्गीकुर्वन् इत्युक्ते न स्वीकृत्य इति।
किन्तु तत्र शत्रन्तरूपं तत्र न अङ्गीकरोति अपि तस्मिन्नेव समये सः अयाचति अयाचत अतः तत्र अनङ्गीकुर्वन् अयाचत तत्र क्रियाद्वयं।
अयाचत इति मध्यमपुरुषे बहुवचनरूपम् अस्ति तत्र यूयम् अयाचत तत्र कथम्
अयाचत इति
प्रथमपुरुषे
भगिनि
अयाचत् इति अस्ति
न तत्र एतत् आत्मनेपदी धातु इति मन्ये याचते अयाचत खलु आत्मनेपदी धातूनां तत्र थ इति
आत्मनेपदी धातु नास्ति महोदय अयाचत् अयाचताम् अयाचन् अयाचः अयाचतम् अयाचत इति मध्यमपुरुषे बहुवचनरूपम्
न व्याधः अयाचत इति अस्ति खलु भगिनि।
पश्यामि परन्तु
पृच्छामि। अस्तु भगिनि अस्तु
अग्रे गच्छतु महोदय। गौतमी तु तस्मै अनुमतिं न अददात् गौतमी तु तत्तु न अङ्गीकुर्वन् अनङ्गीकुर्वन् व्याधस्य याचना गौतमी अनङ्गीकुर्वन् समीचीनं अनङ्गीकुर्वत् क्षम्यतां
तत्र अयाचत गौतमी तु अनुमतिं न अददात् तत्र गौतमी न अङ्गीकुर्वती इति खलु तत्र कुर्वन्ति अथवा कुर्वती तत्रापि शत्रन्तरूपं तत्र अनुमतिं न अददात् अस्तु तत्र अनुमतिं न दत्तवती सा न दत्तवती
अङ्ग्यकरोत् इति भवति मेबि अङ्गी योगः अकरोत् अङ्गीयोगः अकरोत् अतः अङ्ग्यकरोत्
अनङ्ग्यकरोत् इति वा
अनङ्ग्यकरोत्
अनङ्ग्यकरोत् प्रायशः तादृशरूपं भवति भगिनि। समीचीनं अनङ्ग्यकरोत् इति
क्षम्यतां महोदय
रूपम् अस्ति महोदय, आत्मनेपदीरूपमपि समानरूपमेव अस्ति, ततः किञ्चित्
अस्तु अस्तु भगिनि अस्तु.
लङ्लकारे प्रथमपुरुषे एकवचनम् अयाचत् अस्ति, कर्तृप्रयोगे मध्यमपुरुषे बहुवचनरूपमपि अयाचत् इति अस्ति, अतः किञ्चित् भ्रमः जातः.
अस्तु भगिनि समीचीनमेव, अस्तु अस्तु चिन्ता मास्तु भगिनि. अस्तु तत् किन्तु तत्र आत्मनेपदी धातु इति चिन्तितं, तत्र यतोहि तत्र त अस्ति अन्ते,
तत्र रूपं समानरूपम् अस्ति, परन्तु धातु अस्ति अतः तस्य रूपं तु
प्रथमं. सत्यं भगिनि, धन्यवादः. अस्तु अग्रे.
अपि च अत्र तस्मै अस्ति, अतः दा धातुः अस्ति, अतः तस्य दानं भवति तस्य चतुर्थी विभक्ति भवति.
कस्मै कस्मै तत्र कर्मपदं किम् अस्ति?
अनुमतिम्.
अनुमतिम्, हा समीचीनं, हा अनुमतिं न अदधात्. तस्मै तस्मै तत्र व्याधः अस्ति, तत्र व्याधपदस्य चतुर्थी किं?
व्याधाय इति.
हा तस्मै व्याधाय अनुमतिं
न दत्तवती.
न दत्तवती, समीचीनं. हा अग्रे.
गौतमी व्याधयोः सम्भाषणं श्रुत्वा सः सर्पः मनुष्यभाषया अवदत्, हे अर्जुनक, अहं बालम् अदशं यत् तत्र मम न कोऽपि दोषः. गौतमीव्याधयोः सम्भाषणं श्रुत्वा यदा गौतमी अपि च व्याधः सम्भाषणं कुर्वन् आसीत्.
तत्र कुर्वन्तौ इति तत्र प्रायः कुर्वन्तौ
कुर्वन्तौ आसीत् तदा
तत्र आसीत् द्विवचने कोऽपि आसन् इति बहुवचने कोऽपि स्मरति वा? तत्र आसीत् इति द्विवचने किम् अस्ति इति? आसीत्
आस्तां महोदय.
आस्ताम्, हा अतः कुर्वन्तौ आस्ताम्.
कुर्वन्तौ आस्ताम्,
धन्यवादः भगिनि. कुर्वन्तौ आस्ताम्.
यदा गौतमीव्याधः सम्भाषणं कुर्वन्तौ आस्ताम् तदा तत् सम्भाषणं श्रुत्वा सः सर्पः मनुष्यभाषया अवदत्. सः मनुष्यवाण्या अवदत्, भाषया इत्युक्ते वाण्या अवदत्, हे अर्जुनः, व्याधं सम्बोध्य सः वदति, हे अर्जुनक, अहं बालम् अदशं यत् तत्र मम न कोऽपि दोषः.
नाम अहं तु तम् अदशं, तत्तु अहम् अङ्गीकरोमि, किन्तु तस्मिन् विषये मम दोषः किमपि कोऽपि दोषः नास्ति. अतः तत्र मम न कोऽपि दोषः अस्मिन् विषये, तत्र अहम् अङ्गीकरोमि बालम् अहम् अदशं, किन्तु मम दोषः नास्ति इति.
मृत्योः बलात् एव मया इदं कार्यं कृतम् इति. मृत्योः बलात्,
मृत्योः इति तत्र विभक्ति का?
तत्र षष्ठी विभक्ति महोदय.
कस्य बलात्? अत्र मृत्योः बलात्
उकारान्तपुल्लिङ्गशब्दः, तस्य षष्ठी विभक्ति एकवचने मृत्योः इति. कस्य बलात्? मृत्योः बलात्. बलात् एव, बलात् एव इत्युक्ते बलस्य कारणेन, मृत्योः बलस्य कारणेन तस्य किं वदनीयं, तस्य इफेक्ट् इति.
तत्र तदेव तत्र माध्यमम् आसीत् अथवा तत्र करणम् आसीत्, तत्र बलम् उपयुज्य एव तत्र अहम् अथवा तस्मात् कारणात् एव.
मया इदं कार्यं कृतं.
अत्र अहम् एतं कार्यं कृतवान् इति न वदति, मया एतत् कार्यम् इदं कार्यं कृतम्. नाम तत्र कर्ता अहं नास्मि, मया कारितं तत्र एतत् कार्यं, मया तत्र अन्य कोऽपि कारितवान्, अहं न कृतवान् कः कारितवान् नाम तत्र मृत्युः एव एतं कार्यं कारितवान् इदं कार्यं कारितवान् मया कारितवान् तत्र अहं कृतवान् इति न किन्तु अन्यः कारितवान् अतः एव मम दोषः नास्ति अस्मिन् विषये इति समीचीनं भगिनि
भेदः अस्ति खलु महोदय कर्तरि अपि च कर्मणि प्रयोगे
सत्यं भगिनि सत्यम् अतः एव तत्र तद् चिन्तनीयमस्ति तत्र सम्यक्तया अत्र दत्तमस्ति कर्मणि रूपमेव दत्तमस्ति यतोहि तत्र अहं न कर्ता इति प्रदर्शयितुं
तत्र अहङ्कारः नास्ति महोदय
किं भगिनि
अहङ्कारः नास्ति यदि
सत्यं
तत्र कारणं भवति मया इति तेन कारणेन
तत्र तत्र सन्दर्भः प्राप्तम् इति वदामि किन्तु तत्र एतत् किं महत्त्वपूर्णः विषयः नास्ति तत्र कर्मण्येव अधिकारस्ति इति अस्ति खलु नाम कर्मणि प्रयोगः एव वयं सर्वदा कुर्मश्चेत् समीचीनं भवति
एतदपि समीचीनम् उत्तमप्रयोगः
सः किं वास्तविकः अर्थः सः नास्ति किन्तु केवलं हास्यार्थं कर्मण्येव अधिकारस्ति नाम सर्वदा कर्मणि रूपमेव वदतु उपयोगं करोतु अस्तु अग्रे धन्यवादः भगिनि अस्तु अग्रे तत्र शोभा भगिनी अग्रे पठति वा
आं महोदय महोदय तत्र हे अर्जुनक इति रूपम् अस्ति किल तत्र अर्जुन इति अर्जुनः इति एव नाम
न अर्जुनकः इति नाम अर्जुनकः इति नाम तस्य नाम
अस्तु पूर्वं किं मया अस्मान् वा अस्मान् एकं पदं दृष्टं महोदय पुत्रकः इति आसीत् पुत्र इति सम्बोधनस्य स्थाने पुत्रकः इति किमपि विशिष्टम् आसीत् तत्र महोदय तत्र स्वार्थे संज्ञायाम् अनुकम्पयां वा कन् इति दत्तम् अत्र दृष्टवती अतः पृष्टवती
तत्र पुत्रक इति अपि तद् पुत्र इति अर्थे एव भवति खलु भगिनि
अर्थं तु पुत्र एव भवति किन्तु तत् तादृशं सम्बोधनं कस्मिन् स्थले एव भवति इति
तत्र प्रायशः अर्जुनकः इति भिन्नम् अस्ति तत्र अर्जुनकः नाम अर्जुनः नास्ति किन्तु पुत्रक नाम पुत्र अस्ति अस्मिन् पाठे अस्ति वा अस्मिन् पाठे वा भगिनि
न
अस्तु अस्तु
गीतासोपानं प्रथमभागे इति मन्ये
अस्तु 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 अस्तु
तत्र पुत्रका इति आगतः पुत्रका इति सम्बोधनम्
अस्तु 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 भगिनि एकवारं परिशीलयामि तत्र न स्मरामि इदानीं
आं महोदय अस्तु तदा व्याधः अवदत् तथापि अस्य बालस्य दशनं तु त्वया एव कृतम्
तत्र सर्पः वदति तत्र मम दोषः नास्ति इति
तत्र सर्पः तु अवदत् एतत्तु अहं किं स्वबुद्धया न कृतम्
तत्र मृत्योः बलात् एव तत्र मृत्योः बलात् अहं न तत्र किं कीदृशम् अस्ति चेत् अहम् एतत् कर्तुं न इष्टवान् किन्तु मृत्योः बलात् एतत्
अभवत्
इति
अतः तस्य प्रेरणया कारितम् आसीत् इति
सत्यं सत्यं तादृश अर्थे अस्ति सत्यं भगिनि
तदा व्याधः अवदत् तथापि अस्य बालस्य दशनं तु त्वया एव कृतं व्याधः अवदत् कारणस्य कृते मम किं
तत्र चिन्तनं नास्ति तत्र कारणं किम् इति अहं न पश्यामि
कारणं किम् इति न पश्यामि, किन्तु तेन किम् अभवत् इति पश्यामि.
हा इति सत्यं सत्यं, तत्र कारणं त्यजामः, कारणं मास्तु इदानीं, किन्तु किम् अभवत् तत्र त्वया त्वया दशनम् अभवत्,
त्वया दशनं
कृतवान्, अतः त्वमेव त्वं वद्यः. वद्यः इति वद्यः एव इत्युक्ते तत्र
वधं करोति,
न न तत्र एतस्य वधः
तत्र वद्यः वद्यः भवति,
न न एषः वद्यः, तत्र त्वं वद्यः एव इत्युक्ते त्वं त्वम् इत्युक्ते सर्पः, वद्यः तत्र त्वं तव मरणं तत्र त्वं मरणम् अर्हसि इत्युक्ते तत्र दण्डन दण्डरूपेण दण्डनं शिक्षा.
अस्तु अस्तु,
तत्र अर्ह तत्र भवान् अर्हति, किम् अर्हति, मरणम् अर्हति, यतोहि भवतः तत्र भवतः दोषः अस्ति, एतस्य बालकस्य मरणं सर्पः कृतवान्, अतः सर्पः दण्डम् अर्हति. कीदृशं तत्र दण्डः दण्डम् इत्युक्ते तत्र हा मरणम्, अतः तत्र योग्यता तत्र वद्यः वद्यः
वद्यः
हा वद्यः क्षम्यतां वद्यः न वद्यः त्वम् एव इति, अतः त्वं वद्यः एव इति.
आम् इति सर्पः वदत् अहं मृत्योः प्रेरणया एव अस्य बालस्य हनने कर्ता अभवम्. सर्पः अवदत् पुनः मृत्योः प्रेरणा मृत्युः प्रेरणम् अददत् वा अददत् अददत् अतः तस्य
तत्र अददात् अददात्
अददात् एकवचने अददात् अददात् तेन बलेन एतत् कार्यं मया कृतं हनने कर्ता अभवत् अहं अभवम् हनने तस्य बालस्य मरणे, किन्तु तत्तु तस्य मृत्योः प्रेरणया एव अभवत् इति पुनः वदति.
तत्र सीमा रचयति खलु, सीमा रचयति तत्र अन्यत् किमपि कारणं नास्ति, तत्र एव सः एव कृतवान् इत्युक्ते अन्य कोऽपि न कृतवान्, सः एव कृतवान्, तत्र सीमा भवति खलु एव इति पदस्य सीमा, तत्र सीमा इति जानाति खलु, तत्र सर्वं नास्ति किन्तु तत्र सीमा अस्ति, अत्र सीमा कुत्र अस्ति नाम मृत्योः प्रेरणा एव, हा तत्र हा अतः तत्र सीमा अस्ति एव नाम सीमा केवलं मृत्योः प्रेरणा इति,
सः किमपि कारणं
कारणं नास्ति, अतः तेनैव कारणेन अथवा मृत्योः प्रेरणया एव अस्य बालस्य हनने कर्ता अहम् अभवम्.
कर्ता अभवम् इति वदति,
अहं किमर्थं कर्ता अभवं
कृतवान् इति न, कर्ता अभवम् इति.
समीचीनं, हा किमर्थम् अहं कर्ता अभवं मृत्योः प्रेरणया एव अहम् अभवम्. अग्रे
महोदय एकः संशयः, तत्र बालस्य हनने कर्ता, हनने कर्ता तृतीय किमर्थम् उपयोगं कृतवान् तत्र?
हनने कर्ता हनने इति सप्तमी खलु भगिनि, हननम्
ओ ओ अस्तु
हनने
हनने
हा कस्मिन् विषये कर्ता, तत्र हनने कर्ता इति
बालस्य हनने कर्ता,
हा कस्मिन् विषये कर्ता.
अस्तु अस्तु महोदय,
वास्तविकं कारणं तु मृत्युः एव इति पुनः वदति, पुनः पुनः तदेव स्पष्टं स्पष्टीकरणं करोति. मया किमपि न कृतं,
तत्र मूलकारणं
अभवत्,
मूलकारणं तु मूलकारणं तु मृत्युः इति सः वदति.
वास्तविकम् इत्युक्ते वस्तुतः कारणं तु मृत्युः एव
इति सः वदति. समीचीनं भगिनि, हा अस्तु अग्रे
अग्रे. तदा मृत्युः एव तत्र उपस्थितः अभवत् अधुना मृत्युः अपि आगच्छति तत्र
सः अपि आगतः सः अपि
उपस्थितः भवति अभवत् सः अवदत् हे सर्प नात्र अहं कारणं न वा त्वं कालः अत्र कारणम्
इति
अधुना सः वदति सर्पं वदति
न न सर्पं सर्पं सः मृत्युः सर्पं वदति
सर्पं वदति मां मा दूषयतु अहमपि कारणं नैव कारणं तु
त्वमपि कारणं नास्
त्वमपि अहमपि त्वमपि कारणं नासि अहमपि कारणं न भवामि
नास्मि नास्मि
नास्मि नास्मि कालः अत्र वस्तुतः कालः कारणः कालः किं तत्र कारण
कारणं कारणम् इति तत्र नपुंसकलिङ्गे एव अस्ति तत्र कालः एव कारणं
कारणम् इति किन्तु किमपि
तत्र विशेषः भावः नास्ति तत्र कालः एव कारणम् इति तावदेव
अन्यद् रूपेण वक्तुं शक्नुमः
अस्तु अस्तु अस्तु
तत्र कालः एव कारणः अभवत् न कारणम् इति नपुंसकलिङ्गे एव अस्ति अस्तु महोदय
तत्र अथवा कालः एव प्रेरणां दत्तवान्
प्रेरितः इति
कालः एव तत्र मां प्रेरितः कालः एव मां प्रेरितः समीचीनं अग्रे
यतः तेन प्रेरितः
तदेव अस्ति अत्र
तेन प्रेरितः अहं त्वां प्रेरितवान् इदं तु सत्यम् अहं प्रेरितवान् एव त्वं किन्तु अहमपि कालेन प्रेरितः
अहं कालेन प्रेरितः आसम् अतः अहं त्वां प्रेरितवान् अतः तत्र यत् येन कारणेन भवान् भवतः दोषः नास्ति खलु सर्पस्य दोषः येन कारणेन नास्ति तेनैव कारणेन अहं मम अपि दोषः नास्ति सर्पस्य दोषः नास्ति तेन अहमपि निर्दोषः इति समीचीनं भगिनि अस्तु अग्रे
यथा वायुः आकाशे स्थितान् मेघान् आकर्षति आकर्षति विकर्षति च तद्वदेव तद्वत् एव कालः अपि अस्मान् सर्वान् आकर्षति विकर्षति च यथा वायुः आकाशे स्थितान् मेघान् आकर्षति तत्र वायुः आकर्षति तेन वर्षः भवति इति अर्थे इति मन्ये तत्र महोदय
तत्र वायु वायुना एव तत्र मेघाः सर्व तत्र सर्वे मेघाः इतस्ततः गच्छन्ति तत्र वायुः एव सर्वान् मेघान् प्रेरयति वायुः प्रेरयति इति
अस्तु महोदय
तत्र प्रेरणा तत्र वायुना प्रेरिताः मेघाः इति मेघाः तत्र इतस्ततः गच्छन्ति अतः तत्र आकर्षति वायुः आकर्षति
विकर्षति इत्युक्ते इतस्ततः इति मन्ये महोदय
केवलं न विकर्षति इति तत्र विरुद्धार्थकम् अस्ति आकर्षति विकर्षति इति अतः द्वयमपि करोति इति कृत्वा तत्र इतस्ततः गच्छन्ति इति उक्तवान् तावदेव
अस्तु तत्र महोदय आकर्षति इत्युक्ते यथा भ्रमरः पुष्पेण आकर्षति इति अपि अस्ति किल अर्थं
तदेव तत् आकर्षणम् अस्ति इति तत्र अत्र आकर्षति नाम तत्र मेघान् समीपम् आनयति तत्र प्रेरयति समीपम् आगन्तुं प्रेरयति
पुनः
दूरं गन्तुं प्रेरयति इति
अस्तु तद्वद् एव तथा एव कालः अपि अस्मान् सर्वान् आकर्षति विकर्षति च
वायुः एतत् करोति तथैव कालः अपि तत्र तत्र वायुस्थाने इदानीं कालः अस्ति अपि मेघाः स्थाने किमस्ति भयं 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 सर्व भयं सर्वे स्मः तत्र
भयं सर्वे केपि तत्र कारणं भवतः भवतः न हा कारणं भवन्ति ते सर्वे किल महोदय तत्र
तत्र अस्मान् सर्वान् तत्र लोके ये जनाः सन्ति अथवा तत्र
ये कारणं भवन्ति ते सर्वे इति
हा इति तस्मिन्
आकर्षति विकर्षति च इति यत्र अस्ति तत्र
आकर्षति किम् आकर्षति
हा भागः
तत्र हा समीपम् आगन्तुं प्रेरयति दूरम् इतस्तत गन्तुं प्रेरयति सर्वं कार्यं कर्तुं प्रेरयति
प्रेरयति आम्
हा तत्र मेघः केवलम् आकाशे इतस्तत गच्छन्ति नाम इदानीं तत्र उपमाने अस्मिन् विषये किं भवति यानि कार्याणि वयं सर्वे कुर्मः सर्वाणि कार्याणि
तत्र कालस्य बलेन कृतम् इति
तादृश नास्ति केवलं तत्र तत्र उपमानमस्ति भगिनि नाम तत्र तत्र एतदेव इति नास्ति तत्र आकाशे मेघाः इतस्ततः गच्छन्ति वयमपि किं भूलोके इतस्ततः एव गच्छामः खलु
किन्तु तत्र एकत्र इत्युक्ते कारणं भूत्वा एकत्र कारणं भूत्वा तत्र चेन् इति भवति किल महोदय
तदपि वक्तुं शक्नुमः तदपि वक्तुं शक्नुमः किन्तु अत्र प्रायशः प्रायशः तदपि वक्तुं शक्नुमः भगिनि
अस्तु महोदय अस्ति तदनन्तरं तेन एव कालेन जगत् इदं सृज्यते संह्रियते वा अस्तु तेन एव कालेन तत् कालः तेन एव जगत् इदं सृज्यते संह्रियते वा सः एव सृष्टिं करोति अपि संहरणमपि करोति
हा नाम यदि तत्र कालः नास्ति चेत् तत्र सृष्टिः इति न वक्तुं शक्नुमः संहारमपि न वक्तुं शक्नुमः अतः कालस्य आवश्यकता अस्ति नो चेत् तत्र सृष्टिः वा संहारं वा इति तत्र किमपि न वक्तुं शक्नुमः खलु अतः तत्र कालस्य बलेन एव तत्र लोकमिदं यदस्ति तत् तत् सृज्यते अपि संह्रियते
संह्रियते इति एवं सति
अस्ति चेत् सति पुनः तत्र
एवं सति
सति सप्तमी अत्र एव अस्ति एवम् अस्मिन् सन्दर्भे
एवं सति यदि अत्र दोषः स्यात् तर्हि सः कालस्य एव न तु मम इति एतादृशं स्थितिः अस्ति अतः यदि दोषः स्यात् दोषः अभवत् तर्हि तत् सर्वं कालस्य दोषः एव न तु मम
स्थित्याम् एतादृश्यां स्थित्यां स्थित्यां दोषः तु केवलं तत्र कालस्य एव भवेत् तत्र स्यात् नाम विधिलिङ्गकारः स्यात् सम्भावनार्थे तत्र कस्य भवेत् दोषः प्रायशः कालस्य एव भवति न तु मम दोषः इति स तत्र मृत्युः वदति समीचीनं भगिनि धन्यवादः
महोदय तत्र एवं सति इति सन् शब्दस्य सप्तमी विभक्ति
समीचीनं भगिनि समीचीनं
तत्र सति सप्तमी नास्ति महोदय सन् शब्दस्य
सप्तमी एव नाम तत्र लघुवाक्यम् एवं स्थिति अस्ति चेत् तत्र एवं सन् तावदेव तत्र अतिलघुवाक्यम् अस्ति केवलं सन् इति अस्ति
ओ अस्तु
एवं सन्
तत्र कथं
एवं सति नाम अस्यां स्थित्यां अत्र यदि एषा परिस्थितिः अस्ति
परन्तु क्रियापदं नास्ति न महोदय तत्र पश्यतु क्रियापदं कुत्र अस्ति यदि सति सप्तमी उपयोगं कुर्मः तत्र क्रियापदम् आवश्यकं किल प्रथमवाक्ये क्रियापदं कुत्र अस्ति? यदि अस्यां स्थित्याम् इति वक्तुम् इच्छति भवान्, स्थित्याम् इति नास्ति न, स्थित्यां तु
सति इति अस्ति, तत्र सन् इति एव अस्ति भगिनि, तत्र सन् इति एव, तत्र अन्यत् क्रियापदं किम् इति तत्र भवत्याः प्रश्नः, सत्यमेव, किञ्चित् चिन्तनीयमस्ति.
सन् इति शब्दः शत्रान्तपदं, सन् इति शत्रान्तपदम् अस्ति, सति इति सतस्य सप्तमी विभक्ति. एवं सति इत्युक्ते तत्र शत्रान्तपदम् अस्ति न महोदय? तत्र तु
सत्यं भगिनि, शत्रान्तपदम् अस्ति सत्यं, किन्तु एवं सति नाम तत्र सति सप्तमी इति मम चिन्तनं, किन्तु भवत्याः प्रश्नः अपि समीचीनः एव. तत्र एवं सति नाम तत्र अन्यत् क्रियापदम् अस्ति न वा?
महोदय, तत्र स्यात् इति क्रियापदमेव अस्ति किल विधिलिङ्गलकारे.
तत्तु अत्र दोषः स्यात् इति तु सत्यं, परन्तु प्रथमवाक्ये तु क्रियापदं किम् अस्ति?
अस्तु 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 भगिनि, तत्र इदानीं मम पार्श्वे उत्तरं नास्ति, किन्तु अग्रिमे वर्गे वदामि भगिनि.
उत्तम,
अस्तु अस्तु भगिनि, समीचीनं समीचीनं, अस्तु, धन्यवादः भगिनि. अग्रिमे वर्गे तत्र प्रायशः उत्तरं प्राप्स्यामि इति मन्ये. अस्तु, अत्र अग्रे तत्र प्रिया भगिनि अग्रे पठति वा?
तत् श्रुत्वा वा महोदय? तत् श्रुत्वा कालः एव तत्र उपस्थितः अभवत्. एतत् सम्भाषणं श्रुत्वा अत्र कालः अपि आगतवान्.
नाम तत्र सर्वे वदन्ति खलु इदानीं कालः एव तत्र कारणम्, अतः तत्र दोषः कालस्य एव इति श्रुत्वा कालः अपि तत्र आगतवान्.
कालः सः अवदत्, हे व्याध, तस्य बालकस्य मरणे न अयं पन्नगम् न एषः मृत्युः न वा अहं कारणीभूताः, कारणं तु अनेन कृतं कर्म एव. तत्र आगत्वा कालः आगत्य कालः अवदत्, हे व्याध, अस्य बालकस्य मरणस्य कारणम् अहं न, मम दोषः न, मृत्योः दोषः अपि न, कारणं केवलं तस्य कर्म एव, अन्य केनापि
अन्य किमपि कारण, अन्यत् किमपि कारणं नास्ति. तत्र पन्नगः नाम सर्पः, पन्नगभूषण इति अस्ति खलु, पन्नगः नाम सर्पः. अतः तत्र सर्पः न कारणं, मृत्युः अपि कारणं नास्ति,
अहमपि कारणं नास्ति, केवलं
नास्मि, केवलं तत्र अनेन, अनेन नाम एषः बालः अस्ति अथवा बालकः अस्ति, एतेन बालकेन कृतं कर्म एव कारणम् इति. अग्रे
अग्रे, यदनेन कृतं कर्म तेनायं निधनं गतः, विनाशहेतुः कर्मस्य सर्वे कर्मवशाः वयम्.
तत्र कर्मास्य इति, कर्म अस्य, कर्म योगः अस्य, सर्वे कर्मवशाः वयम् नाम यत् अनेन कृतं कर्म, तत्र अनेन कृतं कर्म यदस्ति, यत् अनेन कृतम्, अनेन नाम एतेन बालकेन कृतं कर्म, तेन कर्मणा, तेन कर्मणा, तेन तत्र कर्म, तेन इत्युक्ते किं, तत्र कर्म, यत् यत् नाम कर्म, तेन कर्मणा अयं निधनं गतः, नाम मरणं प्राप्तवान् अयं बालकः, मरणं प्राप्तवान् दिवङ्गतः अभवत्, दिवङ्गतः, समीचीनं, निधनं गतः. विनाशहेतुः, विनाशहेतु, हेतुः नाम कारणं,
विनाशस्य कारणं,
कारणम् एव कर्म अस्य, अस्य कर्म एव विनाशहेतुः. तत्र कर्म अस्य सर्वे, तदनन्तरं सर्वे वयं, वयं सर्वे कर्मवशाः, तत्र कर्म
कर्मणेन
बद्ध्वा समीचीनं हा तत्र बद्धाः वयं सर्वे बद्धाः तत्र कर्मणा बद्धाः वयं सर्वे तत्र कर्मणः वशे वयं स्मः इति वयं सर्वे कर्मणा बद्धाः अथवा कर्मणः वशे वयं सर्वे स्मः इति हा तत्र अन्य अग्रिमवाक्यं पठित्वा तत्र समापयामि भगिनि हा तत्र
अस्तु छाया तपौ इव कर्मकर्ता च नित्यसम्बन्धौ भवतः इति यथा छाया यथा छाया आतपः ददाति
तत्र छाया अपि आतपः आतपः नाम सूर्यः
सूर्यः
तत्र सूर्यः अपि छाया तत्र तयोः मध्ये सम्बन्धः अस्ति खलु तत्र नित्यसम्बन्धः तत्र इदानीं सम्बन्धः अस्ति पूर्वं नासीत् अथवा भविष्ये न भवति इति न तत्र सम्बन्धः नित्यम् अस्ति तादृशः कर्म अपि कर्ता एषः किमपि कार्यं करोति कर्म करोति कर्ता अपि कर्म तयोः मध्ये यः सम्बन्धः अस्ति सः सम्बन्धः नित्यः अतः तत्र यत्र सम्बन्धः अस्ति द्वौ तत्र कर्ता अपि कर्म नित्यसम्बद्धौ भवतः इति अत्र नाम तत्र कर्म अपि कर्ता तयोः मध्ये यः सम्बन्धः अस्ति तत्तु सः सम्बन्धः तु नित्यः
महोदय छाया अपि च आतपः किं सम्बन्धः अस्ति अहं न जानामि
छाया इति तत्र भगिनी तत्र शाडो इति स्वीकर्तुं शक्नुमः
ओ अस्तु शाडो अस्तु अहमपि शेड् एव चिन्तितवती भगिनी
छाया शेड् भवति वा शाडो भवति वा महोदय
शेड् अथवा शाडो द्वयमपि तत्र सूर्यः अस्ति सूर्यः अस्ति चेत् छाया भवति अपि तत्र अन्यदपि तत्र चिन्तयितुं शक्नुमः तत्र छाया इति सूर्यस्य पत्नी इति अपि अस्ति खलु अतः तत्र तदपि तत्र नित्यसम्बन्धः इति अपि
परन्तु महोदय छाया अस्ति चेत् नित्यसम्बन्धं कथं भवति महोदय
किं भगिनि
छाया अस्ति चेत् सूर्यः अस्ति चेत् तस्य
केवलम् एकः छाया इति न तत्र सूर्यः अस्ति चेत् तत्र छाया भवति एव तत्र छाया अत्र अस्ति अन्यत्र अस्ति किन्तु छाया कुत्रापि अस्ति एव खलु इति केवलम् एकस्य पदार्थस्य छाया न किन्तु छाया इति कुत्रापि भवेत् खलु इति
अस्तु
इति तेषां
The result of sunlight is a shadow, na? You see
that? Iti arte bhagini. Tatra...
Oh, asto. Shadow eva.
Shadow iti. Shadow bhavati eva. Tatra yatra deepa hasti, tatra chaya hasti iti. Tadrusha arte.
Asto, asto, maude. Ida ni mavagata maude.
Ata tatra yada yatra eka hasti, tatra anyaha api hasti iti.
Am maude.
Ata tatra karta api karma tayoho sambandha तत्र अद्य अस्ति अग्रे तत्र सम्बन्धः छिन्नः भवति इति न वक्तुं शक्नुमः सः सम्बन्धः नित्यः इति अतः एव वयं सर्वे कर्मबद्धाः कर्मवशाः वयं सर्वे इति अस्तु
महोदय एकं वक्तुम् इच्छामि तत्र पन्नगः इति कियत् सुन्दरः शब्दः महोदय पद् न गतः पादाभ्यां न गच्छति इति पन्नगः महोदय
धन्यवादः भगिनि समीचीनं भगिनि सत्यं भगिनि सत्यं सत्यं भगिनि तत्र पादपः इति वृक्षः यत् अस्ति तादृशमेव समीचीनं भगिनि पन्नगः नाम यत् पादाभ्यां न गच्छति सः पन्नगः धन्यवादः भगिनि समीचीनं अस्तु तर्हि धन्यवादः भगिनि अस्तु तत्र उषा भगिनी अन्ते भवति तत्र मधु महोदय तत्र अग्रिमवर्गे भवान् पठति वा महोदय
क्षम्यतां
तत्र वर्गं तत्र क्षम्यतां महोदय, किन्तु अग्रिमे वर्गे निश्चयेन वयं कुर्मः. अस्तु अस्तु, उषा भगिनि.
ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. धन्यवादः महोदय.
धन्यवादः भगिनी, धन्यवादः. सर्वेभ्यो नमः. अग्रिमे वर्गे मिलामः. नमस्कारः.
धन्यवादः महोदय.
धन्यवादः. नमस्कारः.